नमस्ते, हरा भाम है वाक्यकारं रुचिं भाष्यकारं पतंजलिं पाणिनिं सूत्रकारं च प्रणतोस्मि मुनित्रयम्। सुबन्तानां विषये अधीयमानम् आसीत्, तत्र हलन्तशब्दानां परिचयः अस्माभिः प्राप्तः। केषाञ्चन हलन्तशब्दानां प्रक्रिया अपि अस्माभिः अधीता। हलन्तशब्दानाम् अवगमनार्थं संज्ञात्रयस्य ज्ञानम् अपेक्षितम् इति मया उक्तं। सर्वनामस्थानं भं पदम्, एताः संज्ञाः अवलम्ब्य एव सूत्राणि प्रवर्तन्ते। अद्य अजन्तशब्दानां विषये, अजन्तशब्दानां प्रक्रियायाः विषये किञ्चित् जानीमः। अनेके अजन्तशब्दाः सन्ति, अच् अन्ताः, अच् इत्यनेन सर्वे स्वरवर्णः अ इ उ इत्यादयः वावल्स् अजन्ताः, अच् येषाम् अन्ते वर्तन्ते ते अजन्ताः। अत्र केचन शब्दाः मया चिताः सन्ति। एतेषां शब्दानाम्, एते प्रसिद्धाः अत्र आधिक्येन अकारान्तः, इकारान्त, इकारान्तशब्द, एते ये लिखिताः सन्ति अत्र, एतादृशशब्दाः एव आधिक्येन प्रयुज्यन्ते। अतः एते शब्दाः चिताः। एतेषां शब्दानां प्रक्रियाम् अद्य आरभ्य जानीमः। संज्ञात्रयस्य विषये पूर्वमुक्तं, सर्वनामस्थानं भं पदम् इति। तेषां प्राधान्यं हलन्तशब्देषु एव, अजन्तशब्देषु तथा तेषां प्रभावः न दृश्यते। तत्र विशेषेण ताः संज्ञाः अवलम्ब्य सूत्राणि अजन्तशब्देषु न प्रवर्तन्ते। अतः तं विभागमवलम्ब्य अत्र पाठनं न क्रियते। केचन सामान्यनियमाः ज्ञातव्यः एतेषां शब्दानां प्रक्रियायाः अवगमनात् प्राक्। केचन सामान्यनियमाः ज्ञातव्याः, ये सर्वत्रापि, रामशब्दः स्यात्, हरिशब्दः स्यात्, सर्वत्रापि तेषां सूत्राणाम् अन्वयः भवति। अतः तादृशनियमान् आदौ वदामि, ततः परं प्रत्येकं शब्दस्य प्रक्रियां जानीमः। प्रथमनियमः अस्ति तत्र णत्वविषयकः नियमः। राजशर्मा महोदय, प्रश्नः वर्तते वा?
नमस्कारः, श्रूयते वा?
श्रूयते।
पूर्वं पूर्वदृष्टं सूच्याम् अकारान्त अकारान्त शब्दे अकारान्त पुल्लिङ्गे डाश् इति दृष्टं मया। किमर्थम् अकारान्त पुल्लिङ्गशब्दाः सन्ति खलु?
सन्ति सन्ति, मया ये शब्दाः अत्र प्रदर्श्यन्ते, येषां शब्दानां प्रक्रिया प्रदर्श्यते, ते एव लिखिताः अत्र। ये न लिखिताः ते शब्दाः न सन्ति इति नार्थः। आकारान्त शब्दः प्रसिद्धः नास्ति, केचन शब्दाः सन्ति विश्वपा इत्यादयः आधिक्येन तत्र न प्रयुज्यन्ते, अतः तेषां तादृशशब्दानां प्रक्रिया मया न प्रदर्श्यते. सन्ति कौमुद्यादिषु पठितुं शक्नुवन्ति ये इच्छन्ति, किन्तु अत्र मया तेषां शब्दानां प्रक्रिया न प्रदर्श्यते, अतः ते शब्दाः न लिखिताः.
अस्मिन् सन्दर्भे एकः सन्देहः आसीत् मम आकारान्तः पुल्लिङ्गशब्दविषये. धारा इति शब्दं पदमस्ति, शब्दमस्ति धारा इति, खलु पुल्लिङ्गशब्दः धारा. प्रयोः यदि यदि प्रयोगः कथं भवति धाराशब्दस्य प्रयोगः, सः यदि अहं वदामि सः धारा अस्ति, मम धारा अस्ति, सः मम धारा वा सा मम धारा वा?
प्रथमतः धाराशब्दः नित्य बहुवचनान्तः, अतः सः सा द्वयमपि असाधु एव. ते मम धाराः सन्ति, यद्यपि एका एव तथापि धाराः सन्ति इत्येव प्रयोगः. पुल्लिङ्गे एव बहुवचनप्रयोगः, एकवचनं द्विवचनं नास्ति धाराशब्दस्य, अतः धाराः सन्ति इत्येव प्रयोगः. मित्रम् इति अपुंसकलिङ्गप्रयोगः क्रियते, यद्यपि कुमान् तथापि अथवा स्त्री, किन्तु मित्रम् इति प्रयोगः क्रियते, मम मित्रम्, इदं मम मित्रम्, एषः मम मित्रम् इति भवति, तद्वदेव.
धन्यवादः, धन्यवादः.
पर्वतनाथन् महोदय
नमस्ते. ते ताः मम दाराः इति वक्तव्यं वा, वक्तव्यं वा सा मे दाराः इति वक्तव्यं? दाराः सदा बहुवचनं, परन्तु एका एव पत्नी अस्ति, तत्समये सा मे दाराः इति वक्तव्यं वा ताः मम दाराः इति कथं वक्तव्यं? वास्तवे एका एव पत्नी, तत्समये यदा यदि अहं वदामि सा मे दाराः इति वक्तव्यं वा ताः मम दाराः इति वक्तव्यं वा? दाराः बहुवचनं, कथं वक्तव्यं?
दाराशब्दः पुल्लिङ्गे अपि अस्ति, स्त्रीलिङ्गे नास्ति. यद्यपि स्त्रियं बोधयति तथापि स्त्रीलिङ्गे नास्ति शब्दः, पुल्लिङ्गे अस्ति. पुनः तत्र इदानीं तत्र अन्योपि विषयः अस्ति, प्रयोगः कथं भवितुमर्हति? ताः दाराः, ताः मम दाराः इति भवितुमर्हति. यदि दाराः इत्यस्य ताः तच्छब्दः यदि विशेषणं, तर्हि ताः मम दाराः इति प्रयोगः.
इदं यदि वदामि, इत्थं यदि वदामि, मे बहवः पत्न्यः अस्ति इति अर्थं भवति. ताः
अर्थं यः न जानाति तस्मै भवेत् संस्कृतम्, अन्यथा तु न भवति. अन्यथा तत्र द्विधा अस्ति प्रयोगः.
उदाहरणं वदामि, रामस्य दाराः, कृष्णस्य दाराः, श्रीकृष्णस्य बहवः पत्न्यः, श्रीरामस्य एका एव पत्नी, रामस्य अत्र अर्थभावे किञ्चित् क्लेशः भवति.
पुनः पश्यन्तु, संस्कृते बहवः शब्दाः भवन्ति, सर्वे शब्दाः समानार्थकाः इति यद्यपि उच्यन्ते, किन्तु समानार्थकाः न, तत्र सन्दर्भम् अवलम्ब्य सः शब्दः प्रयोक्तव्यः भवति. पत्नी इति शब्दः सर्वदा पत्नी इति प्रयोगः न क्रियते, पत्युः यज्ञ पत्युर्नो यज्ञसंयोगे, इति यज्ञसम्बद्धक्रियाकलापेषु पत्नी इति नाम, सर्वदा पत्नी इति प्रयोगः न. अतः प्रत्येकं शब्दः तस्मिन् तस्मिन् सन्दर्भे प्रयोक्तव्यः.
अतः साधारणसमये दाराः वा सहधर्मिणी वा?
सहधर्मिणी इति प्रयोगः युक्तः.
सहधर्मिणी इत्युक्ते धर्मकार्ये पत्न्याः सम्बन्धः अस्ति चेत् காபி பத்னி தர்மகாரியே மே தர்மகாரியே மதியில இது உக்தவதி சேத் சக தர்மணி நேசா
சகதர்மிணி நோதி அந்நிய கஷ்ட சப்த பிரயோக்தவிய
சாதாரண சாதாரண வைஃப் ஃபார் தட் வாட் இஸ் தி சான்ஸ்கிரிட் வேர்ட் ஜஸ்ட் வைஃப் நாட் இன்ட்ரெஸ்டட் இன் திஸ் யஜ்ஞே நாட் இன்ட்ரெஸ்டட் இன் யஜ்ஞ
திரஷ்டவ்யம் சம்ஸ்கிருத பத சம்ஸ்கிருத பதானி சர்வாணி நம்ம ஆதிக்கேன கிஞ்சித் விசிஷ்டமர்த்தமே போதையந்தி பத்னி வா சாதர்மிணி வா நம்ம சர்வமபி யதா விவாஹ ஏவ தர்ம சம்பத்த அஸ்தி அதஹ தர்ம ரஹித சம்பந்தஹ சேத் பதம் அன்வேஷ்டவ்யம் அதஹ தத்ர திரஷ்டவ்யம் அஸ்மாபி கிந்து ஏதே சர்வேபி சப்தாஹ ஏதார்ஷஹ ஏவ அதஹ பவந்த இதி காவ்யம் படந்தி காவ்யேஷு சமானம் அர்த்தம் போதயிதும் விபின்ன கால விபின்ன சப்தஹ பிரயோஜ்யந்தே அத்தவா இதோபி உதாரணம் சேத் பகவத்கீதாயாம் சர்வதா ஹே அர்ஜுன இத்தியவ சம்போதனம் ந க்ரியதே
ததாபி வியாக்கரண ரீத்யாபி மம சந்தேக அஸ்தி தாஹா தாராஹ இத்யுக்தே பரவஹ இதி தாஹா பகுவச்சனம்
தத்விஷயே அன்யேகம் உத்தரமஸ்தி அத்ர தாஹா இதி விசேஷணம் அஸ்தி தாஹா இதி தாரா தாஹா இதி நபோத்தேவ தே தே தாராஹ இதி வாக்கியம் அத்ர தே இதி இதம் விசேஷணம் தே இதி விசேஷணம் தாராஹ இதி விசேஷ்யம்
விசேஷ்யம்
யதா விசேஷணம் விசேஷ்யம் ச பிரயுஜ்யதே தஸ்ய வாக்கிய பிரயோக க்ரியதே வாக்கிய பிரயோக காலே விசேஷண விசேஷயோ பிரயோக விஷய கேச்சன விஷய நியமா சந்தி கதம் தேசாம் பிரயோக கரணீயா இது விஷய உதாரணம் மகாபாஷ்யாதிஷு வேதாஷு பிரயோக்தா சந்தி அதாஹ அங்கீகிருதமஸ்தி வ்யாகரணே தாராஹ இத்யஸ்ய விசேஷணத்வேன தே இத்யஸ்ய விவக்ஷா இத்யஸ்தி விசேஷணத்வேன விவக்ஷா இதி சேத் ததா தே தாராஹ இத்யோ பிரயுக்தவ்யம் தே தாராஹ சந்தி இதி பிரதமம் கேவலம் மனசி ஆகதம் சா இதி ததப் பரம் மனசி பதம் ஆகதம் தாராஹ இதி
பட் லெட் மீ இமேஜின் எ சிச்சுவேஷன் தேர் ஆர் மெனி ஜென்ஸ் அண்ட் தேர் வைஃப்ஸ் ஆர் தேர் ஈச் ஒன் ஹஸ் ஒன்லி ஒன் வைஃப் நார்மலி சான்ஸ்கிரிட் ஒன் டு ஒன் கரஸ்பாண்டன்ஸ் இஸ் தேர் பட் ஹியர் தட் சீம்ஸ் டு பி ப்ரோக்கன்
சோ இஃப் மீன்ஸ் யதி தத்ர தாரஷ அர்த்தஹ அவகமனே க்லேஷஹ பவதி அர்த்தஸ்ய அவகமனே க்லேஷஹ பவதி ஸா சப்தஹ ந ப்ரயோக்தவ்யஹ தாதேவ ஸ்ரோத்ருணாம் தத்ர அவகமனம் ந சக்யதே இதி பாதி தரிஹி ஸா சப்தஹ ந ப்ரயோக்தவ்யஹ அன்ய சப்தஹ சந்தி கலு தே சப்தஹ ப்ரயோக்தவ்யஹ புனஹ ஸா தாராஹ இதி ப்ரயோகஹ பவிதும் அர்ஹதி
பவிதும்
அர்ஹதி அத்ர வியாக்கரணரீத்யா ஏதஸ்யாபி சாதுத்வம் வக்தும் சக்யதே பிரயோகः சமீச்சீனः இதி வக்தும் சக்யதே
தத்ர வியாக்கரண தோஷः
ந பவதி ந பவதி ந பவதி ஏதாஷ பிரயோகாः கிருதா சந்தி வியாக்கரணே அத்ர வியாக்கியானம் அஸ்தி கிமர்த்தம் கதம் ஏதாஷ பிரயோகः பவித்தும் அர்ஹதி இதி விஷயே விவரணம் அஸ்தி பிராயः அன்யதா வதாமி தத்ர அநேக விசாரா சந்தி
धन्यवादः इदानीं क्लेशः गतः
अस्तु अस्तु अन्यथा यदि सामान्यतः विशेष दाराः इति विशेष्यन्ते तदा ते इति प्रयुक्तं भवति विशेषणम् इति कारणात्
अवगतम् अवगतम्
किन्तु प्रथमं दाराः इति उक्त्वा ततः परं सा इति वक्तुं न शक्यते विशेषं पूर्वम् उक्त्वा दाराः इति उक्त्वा ततःपरं ते इति प्रयोगः क्रियते चेत् असाधु एव समीचीनं न किन्तु प्रथमं सा इति उक्त्वा ततः परं दाराः इति वदति चेत् तत्र साधुत्वं वक्तुं
शक्यते. तत्र समीचीनमेव.
एवमेवं.
धन्यवादः. धन्यवादः.
अस्तु. अत्र केचन प्रश्नाः योजिताः सन्ति. दाराः वा धाराः वा? दाराः अल्पप्राणः. स्वामिनाथन् जी भार्या इति तत्र प्रायः वैफ् इत्यस्य कृते इदं पदं तैः योजितम् इति भाति. भार्या इति ओके. अस्तु. तत्र सो यु केन् सी इन् डिक्शनरी सो ईच् वर्ड् हेस् मीनिङ्ग्. सो दारा इत्यस्य कः अर्थः, पत्नी इत्यस्य कः अर्थः, सर्वेषाम् अर्थः. इफ् यु डोण्ट् लुक् एट् इङ्ग्लिश् डिक्शनरीस् यु विल् गेट् ओन्लि वन् मीनिङ्ग्. बट् यदि संस्कृतवाचस्पत्यम् इत्यादि कोशान् पश्यन्ति तर्हि तस्य व्युत्पत्तिः का, कः अर्थः इति लिखितं भवति. तम् अर्थं मनसि निधाय अस्माभिः प्रयोगः कर्तव्यः. अमरकोशस्य अमरकोशे अपि पदानि लभ्यन्ते. तत्र व्याख्यानेषु अपि कः अर्थः इति लिखितं भवति. अतः तदवलोक्य प्रयोगः कर्तव्यः. अस्तु. अयं कश्चन विषयः मध्ये प्रविष्टः. आकारान्तशब्दानां विषये प्रश्नः आगतः. आकारान्तशब्दः मया अत्र न लिखितः. किमर्थं मया अत्र न पाठ्यते? यद्यपि सन्ति एव किन्तु न प्रसिद्धाः इति कारणात् तस्य प्रक्रिया मया न प्रदर्श्यते. तेषां तादृशशब्दानां प्रक्रियां भवन्तः अन्यत्र द्रष्टुं शक्नुवन्ति. इदानीं केचन सामान्यनियमाः अत्र मया आदौ प्रदर्श्यन्ते. प्रथमं णत्वम्. अत्र सूत्रं वर्तते रसाभ्यां नोणः समानपदे इति. तस्य कः अर्थः इति चेत् अत्र रकारः पुनः ऋकारः षकारः एतेभ्यः नकारः यदि अस्ति तर्हि तस्य णत्वम् अत्र वर्तते. तस्य णत्वम् अर्थात् नकारस्य स्थाने णकारः भवति, न भवति. उदाहरणम् अत्रैव अस्ति. पितॄणाम् अत्र ऋकारात् ऋकारात् नकारः वस्तुतः प्रीवियस्लि इट् वास् नकार पितॄणाम् इति आसीत्. किन्तु ऋकारात् नकारः अस्ति इति कारणात् नकारस्य स्थाने णकारः पितॄणाम्. एवं कृष्णः अत्र षकारः अस्ति. षकारात् परं नकारः आसीत् कृष्ण इति आसीत्. षकारात् परं नकारः इति कारणात् नकारस्य स्थाने णकारः कृष्णः. एवं विकीर्णम् अत्र रेफात् नकारः आसीत् तस्य स्थाने नकारः विकीर्णम्. एवं ऋकारः रेफः षकारः एतेभ्यः इति नकारः तस्य नकारः भवति. साक्षात् एतेभ्यः साक्षात् परं यदि नकारः अस्ति तर्हि तस्य नकारः भवति. अत्र अन्यदेकं पदमस्ति सूत्रे रसाभ्यां नोन समानपदे. समानपदे इत्यस्ति एकं पदं चेदेव अर्थात् रेफः ऋकारः षकारः पुनः नकारः एते सर्वेपि एकस्मिन् पदे एव इति वर्तन्ते तर्हि एव इदं सूत्रम् अन्वयति इति पदान्तरे अस्ति. उदाहरणार्थम् अत्र रघुनाथ इति. अत्र रेफः अन्यत्र अस्ति, नकारः अन्यत्र अस्ति. एतादृशस्थानेषु णत्वं न भवति, समानपदे भवेत्. अत्र अन्यदेकं सूत्रमस्ति, तदपि दर्शयामि. णत्वविषयकं सूत्रद्वयम्. इदमेकं सूत्रं रसाभ्यां नोणः समानपदे इति. पुनः अट् कुप्वाङ्नुं व्यवायेपि इति द्वितीयं सूत्रम्. පුර්වේණ සූත්‍රේන කිමුක්තම් ඒතේභ්‍යහ රු රේපහ රකාරහ ශකාරහ ඒතේභ්‍යහ සාක්ෂාත් පරම් නකාරහ අස්ති චේත් නත්වම් භවති ඉති පූර්වේණ සූත්‍රේන වේ ප්‍රීවියස් සූත්‍ර පූර්වේණ සූත්‍රේන උක්තම් අනේන සූත්‍රේන කිමුච්ඡතේ ඉති චේත් රේපහ රකාරහ ශකාරහ පුනහ නකාරහ ඒතේෂාම් මධ්‍යේ ඒතේ වර්ණාහ සම්ති චේද් අපි නත්වම් භවති ඉෆ් දීස් ලෙටර්ස් ආර් දේර් ඉන් බිට්වීන් රේපහ රකාර ශකාර ඇන් නකාර දෙන් ආල්සෝ නත්ව ඉස් ඇප්ලිකේබල් සෝ අට් අට් නාම ආල් අච් ලෙටර්ස් වාවල්ස් ඇන් හ ය ව ඒතේ අට් ප්‍රත්‍යහාරය අන්තර්භවಂತಿ දෙන් කවර්ග පවර්ග අනුස්වාර ඒතේ සම්ති චේද් අපි නත්වම් භවති කින්තු අගේන් ඉට් ඉස් සේම් සමාන පදේ බිෆෝර් ඒ ගිව් දට එක්සැම්පල් රඝුනාථ රඝුනාථ අතර රේපහ අස්ති දෙන් දෙර් ඉස් ආෆ්ටර් රේප ර ප්ලස් අ සෝ අකාරහ අස්ති අකාර ඉස් ඉන් අට් අට් වර්ණහ දෙන් ඝකාර ඝකාර ඉස් ඉන් කවර්ත then ukara ukara is again at after that there is nakara though the condition at kavarga pavarga anuswara so this condition though is applicable atra natanna bhavati kimarthanna bhavati samana pade nasti raghu repaha anyasmin pade asti nakara anyasmin pade asti samana pade nasti ataha අතර රඝුනාථ ඉතර නත්වම් න භවති සමාන පදේ භවෙත් කුත්‍ර නත්වම් භවති ද එක්සැම්පල්ස් සි හි හැව් ගිවන් සම් එක්සැම්පල්ස් රාමේණ අතර රේපහ ආරම්භේ අස්ති පදස්ය ආරම්භේ රාමේන ඉති ආසීත් නකාරහ අන්තේ අස්ති මධ්‍ය සි රේපහ දෙන් දෙර් ඉස් ආකාර අනන්තරම් මකාර දෙන් ඒකාර ත්‍රි ලෙටර්ස් ආකාරහ අට් මධ්‍ය අන්තර්භවති ඇන්ඩ් මකාර ඉස් ඉන් පවර්ග දෙන් ඒකාර අගේන් ඉට් ඉස් අට් අතහ නකාරස්ය නකාරහ භවති රාමේණ එම් ගෘහාණාම් අතර ඍකාරහ අස්ති ඍකාරාත් පරම් හකාර හකාර ඉස් ඉන් අට් අගේන් ආකාර ආකාර ඉස් ආල්සෝ අට් අච් ලෙටර් දෙන් නකාරහ නකාරහ අස්ති දෙර්ෆෝර් නකාරස්ය ස්ථානේ නකාරහ ගෘහාණාම් යම් ශරීරේණ රේප ස්ලාස් පරම් ඒකාර දෙන් නකාර අතහ ශරීරේණ වෛරිනේ කර්ෂණම් කර් ෂණම් අකාරහ අස්ති එවම් සූත්‍රද්වයම් වර්තතේ ප්‍රසිද්ධම් සූත්‍රද්වයම් ඒකම් වශාභ්‍යාම් නෝන සමාන පදේ ඉති ප්‍රථමම් සූත්‍රම් අර්ථාත් ඒතේභ්‍යහ වර්ණේභ්‍යහ සාක්ෂාත් පරම් නකාරහ අස්ති චේත් තස්ය ස්ථානේ නකාරහ භවති ද්විතීයම් සූත්‍රම් ඒතේෂාම් වර්ණානාම් ව්‍යවධානම් අස්ති චේදපි නත්වම් භවති ඉති ද්විතීයම් සූත්‍රම් එතේෂාම් ප්‍රයෝජනම් සර්වත්‍ර ඉදානීම් සර්වත්‍ර අස්මාභිහි අග්‍රේ ඥායතේ බහුෂු ශබ්දේෂු එවම් නත්වම් භවති ඕකේ there are some questions I think can you suggest some Sanskrit dictionaries? Sanskrit dictionary, the famous dictionaries are Vachaspatyam. Tasya app api labhyate, kintu kechana dosha santi, kintu samichanam asti app. Vachaspatyam iti prasiddham asti. Yamarkosham patitum icchanti amarkoshasya sudha iti vyakhyanam asti. Yatra sarvesham amarkoshe vidyamana shabdanam vyutpattihi darshita asti. Tat vyakhyanam api avalokayitum shakyate. Sudha इति संस्कृत व्याख्यानं. Should it not be should it not be rashebhyah instead of rashabhyam? It is dvivachana, no? Rashabhyam, ramabhyam, atah rashabhyam iti. How about raman? So ante nakara asti chet nartan na bhavati. There should be one more letter after nakara. So raman ityatra it ends with nakara, tadrusha sthaneshu nattvam na bhavati. Therefore that's not, the tool is not applicable in the Raman. Ramayanam Ramanujan na nabhavati kim. Ramayanam, therefore I said there are actually these two are very famous rules, but there are many other rules. If you want to have a glance, see these sutras are in Ashtamadhyaya Chaturtha Pada. The first sutra in Ashtamadhyaya Chaturtha Pada is Rashabhyam known as Samanapade. And the second one is Atkupvangnu Mevayeti. After that, there are many rules related to this. There are many exceptions and many you will find more prayaha. Tatra, there are about 39 rules related to Natta only. So Navatrimshat Sutrani Santi, Natta Sambadhani. Ataha Maya Yata Sutra Darshu, Dayameva Maya Uktam. Itopi Bahushasthaneshu Bhavitu Marhati. Yadyapi Samanam Padam Nasti Tadapi Kadachit Nattam Bhavati. Uttarayana, Dakshinayana, Uttarayana. Atra Uttarayana, Uttarayana. Iti Nakara Hasti. Yam Ramayana atra nakara asti samanam padam nasti etarsha sthaneshu nattam bhavati tatra sutram vartate nama atra vishesha sutram asti samanyatah nattam na bhavati generally natva is not applicable but there are some exceptions ayanancha iti sutram asti atah yam atah tadvishe jnatum ashtamadhyaya chaturtha padam pashyantu atra bahuni sutrani santi so kevalam maya sutra dvayameva atra uktam. What about Aang Upasarga? Yes. So I left that. It is also there in Aang. Atkupvangnum. So someone pointed out there is Aang also in this sutra. Yes, it is there. But since we are not dealing with such examples in Subantas, I didn't mention Aang. Yes, but it is there. In this sutra, they have also mentioned Aang. Atkupvangnum. Num refers to anuswara. Uttamam. How do you define samana pada? Padam iti tatra. Nama vyakarana the samana dhatuna nishpannam bhavati. Generally ekasya padasya ekaha dhatu bhavati. So anya dhatuna nishpanna nishpannam chet tata anyat padam iti svikriyate. Tatra padam iti nirnetum tatra niyama santi. Subsubantam digantam bhavet upasargas chet tasya padattam asti avyam chet that is a different pada. So such rules are there to decide whether it is pada or not. Generally eka dhatuna nishpannam ekam padam iti pariganyate. Vachaspatyam, is it Sanskrita to Sanskrita? Yes, Vachaspatyam is Sanskrit to Sanskrit dictionary. There are two dictionaries, Vachaspatyam and Shabda Kalpa Dhruma. Both are Sanskrit to Sanskrit dictionaries. Both are good. Vachaspatyam and Shabda Kalpa Dhruma. Ramanuja. Yeah. So Ramanuja, atrapi nattanna bhavati satyam. Raghunatha iti vat. Where are exceptions described? Which chapter? Okay. It is 8-4. Ashtamadhyayaha. Chaturtha padaha. So, Natva Prakarana. section begins with the first sutra and up to 39, 1 to 39, 841 to 849. There are many sutras related to natva in Ashtadhyayi. Okay, then if there is ang upasarga, then would it be samana padam? No, therefore this ang is mentioned. So it is an exception again. Ang, ang iti upasargaha, upasargasya padattam asti. Ataha samana pade iti na anveti. So ang is an exception to samana pada. Okay. So Vachaspatyam, we can download app because there are many volumes. I think 5-6 volumes are there. If you want to buy hard copy, that's good. Otherwise, I think it's Chokamba published that. Otherwise, better to have app so that easily access it. Okay. Astu. And Janeshwariji mentioned both dictionaries are available on samskritebook.org. Okay. So you can download from that website. Samskrit ebook.org. Okay. Prashna asti va Parvatana Sanji?
Prashna Uttarayana Dakshinayana Vishaye 841 to 8439 Sutra asti sankhya kim Uttarayana specifically regarding that Uttarayana Dakshinayana. That
8425 Satya. Okay, Anya Raj Sharma Mahodaya, I come trying to unmute. Raj Sharma
Mahodaya. Samanatam nama asamasam kam. Evam vaktum shakyate kim?
Kutra?
Samanatam.
Asamasah iti na samana padam. Tatra samasa bhavitum arhati. Udana Raghunathah iti tatra samasa asteva. Raghu
Paladrayam Natha Itekam Padam Raghu Itekam Yadupi Samasati Padasanya Vartate Parantahu Raghu Ekam Padam Natham Natha Ekam Padam Samasakate Raghu Natha Natha Ite Padam Bhati
Satyam
Samasati Janina Atha Samanatham Atha Nasti Uttambhuta Samanatvam Nasti Ataeva Nakarasya Nakaro Na Bhavati Nama Samanatvam Nama Asamasaha Iti Vaktam Shakyate Iti Nama Prashna
Asamasaha Iti Na Eka Dhatuna Nishpannam Raghu Itatra Dhatu Hanya Bhavati Natha Itatra Dhatu Hanya Bhavati Avantara Padatvamasti Satyam Dharvam Dhatuna Nishpannam Kintu Eshaha ekam padatvena puram siddham tatasparam samasa kriyate samasat prak asya padatvam siddham tatasparam samasa kriyate yom nathaha itasyapi padatvam siddham tatasparam samasa kriyate kintu ramena itasya padatvam ramena iti karananantaram eva siddham ina itasya yojananantaram eva padatvam siddham Puram padattam eva nasti tasya. Ataha tra nama samasasya tasya avantara padattam asti.
अतएव असमासः इति वक्तुं शक्यते किल
असमासे इति फलस्य अर्थः समासस्य अभावः इति अर्थः न समासः असमासः समासस्य अभावः तु नास्ति खलु इति भवति विवक्षा सम्यक् अस्ति समासरहितं यत् पदं
यत्र कुत्रापि समासः वर्तते क्षम्यतां यत्र कुत्रापि समासः वर्तते तत्र पदद्वयं वा एक एकत्वा अधिकः पदः एव वर्तन्ते तत्र अतः समानत्वं न भवति वा किमिति चेत् प्रत्येकं पदं प्रत्येकं धातुना निष्पन्नमेव भवति
सत्यं सत्यम् सत्यं तत् सूत्रेण वक्तव्यं खलु कुत्र न भवति इति सूत्रेण वक्तव्यमेव खलु कुत्र नत्तं भवति कुत्र नत्तं न भवति इति सूत्रे वक्तव्यम् अन्यथा अत्रापि नत्तं कुर्मः किमर्थं न करणीयं प्रशा रेफः अस्ति नकारः अस्ति अतः नत्तं क्रियते किन्तु न भवति इति सूत्रेण उक्तं चेत् न क्रियते
अव्यवितः परे नकारः नास्ति रेफात्
किन्तु अनेन भवितुमर्हति खलु दिस् द्वितीयं सूत्रम् इदानीम् यद् दर्शितं दिस् अट्कुप् वाङ्गुम् इदं तु अन्वेति अत्र घकारः कवर्गे अस्ति अतः अनेन सूत्रेण भवितुमर्हति नत्वं किन्तु समानपदत्वं नास्ति अतः न भवति
किमर्थं सूत्रद्वयमत्र ऋटुरसाभ्यां नूनः अट्कुप्वाङ्गम् इव इति किमर्थं सूत्रद्वयं ऋटुरसाणाम् अट्कुप्वाम्नुं व्यवायेपि इति एकं सूत्रमेव अलं भवति किल
तस्य रसाभ्यां नूनः इति अग्रे अनुवर्तते तस्य उक्तं खलु 39 रूल्स् सो सर्वत्र अपेक्षितं रसाभ्यां नूनः इति अतः अग्रे अपवादः अपि सन्ति सर्वत्र रसाभ्यां नूनः इति सम्बन्धः अस्ति अतः तत् उत्सर्गसूत्रं कृतं ततः परं तत् सम्बद्ध अपवादसूत्राणि लिखितानि सन्ति अनुवृत्त्यादिदृष्ट्या तत्र प्रयोजनमस्ति अस्तु अस्तु वेङ्कटेश्वरन् जि
नमस्कार सर्
नमस्ते
इन् रात्र न इस् कमिङ्ग् अट् दि एण्ड् आफ् द वर्ड् यु से द न अट् दि एण्ड् विल् बि रिमैनिङ्ग् एस् न बट् रामेण
न ऐ सेड् फ़र् दिस् एक्साम्पल् रामान् रामान् इट् एण्ड्स् वित् नकार बट् रामेण एण्ड्स् वित् अकार रामेण सो टेन्स् वित् अकार अतः अत्र नत्वं भवति रामेण दिस् विल् अप्लिकेबल् टेन्स् वित् अकार बट् रामान् एण्ड्स् वित् नकार उन्दि बिफोर् दिस् रूल्स् नाट् अप्लिकेबल्
धन्यवादः
ओके पर्वतनाथन्जि
प्रश्नद्वयमस्ति प्रथमतः क्रयणं विक्रयणम् इत्यादि पदेषु कुप्वादि अट् कुप्वाङ्गन ता एव विधिः विक्रयणं क्रयणं
सत्यं सत्यं
सत्यम् अन्यविषयेण रघुरातः तत् समासपदम् तद् समास विभजनं करोमि चेत् रघूणां नातः नत्वं वा तत्र रघूणां
रघूणां सत्यं भवत्येव
नकारः नकार
सत्यं
नकारः नकार एव
नत्वं
अतः तत्रापि रघूणां यदा अहं वदामि तत्रापि अट्कुप्वाङ्गन तत् सूत्रमेव
एवं सत्यं सम्यक्
धन्यवादः धन्यवादः धन्यवादः
ओके उपसर्गाः अष्टाध्यायी मध्ये विवरणं कुत्र लभ्यते उपसर्गाणाम् एकं सूत्रमस्ति वेर् यू गेट् जस्ट् उपसर्गविषये एकमेव सूत्रम् अत्र उपसर्गाः क्रियायोगे इति अष्टाध्याय्यां सूत्रं तत्र द्रष्टुं शक्नुवन्ति Pradeha. So just we will get a list of upasargas, but so the prathama adhyaye asti tatra pashyantu tatra puram param kanicha sutrani santi upasarga kriya yoge itasti puram api kanichana sutrani santi tatra upasarga vishe jatam shakyate. Okay, please write down the website. Okay, website. So, just a minute. Some Sanskrit. Sanskrit. E. Sanskrit ebook dot org, the website. Darasthanam. Okay. Astu? Idanim. Okay. Anya kopi prashna. अस्तु नत्र विषये सूत्रद्वयम् उक्तं सर्वत्र एतस्य प्रयोजनमस्ति दशाभ्यां नोणः समानपदे अट् कुप् वाङ्नुं व्यवायेति इति ओके इतः परं अन्यानि सूत्राणि पश्यामः नत्र विषये अधिकं ज्ञातव्यं चेत् अष्टमाध्यायस्य चतुर्थपादं पश्यन्तु तत्र अन्यानि सूत्राणि लभ्यन्ते अन्यत् लोपः तत्र अन्यदेकं सूत्रम् अस्ति एङ् ह्रस्वात् सम्बुद्धेः एङ् पुनः ह्रस्वः इति पदद्वयं प्रयुक्तमत्र एङन्तात् ह्रस्वान्तात् ह्रस्वान्तात् एङन्तात् सम्बुद्धेः लोपः सम्बुद्धिः इति मया पूर्वमपि उक्तं सम्बोधनस्य एकवचनप्रत्ययः सम्बोधनस्य एकवचनप्रत्ययः सम्बुद्धिः इति कथ्यते सम्बुद्धिः इति पाणिनेः संज्ञा पाणिनिना दत्ता संज्ञा सम्बोधनस्य एकवचनप्रत्ययः सम्बुद्धिः इति कथ्यते एङन्तात् ह्रस्वान्तात् सम्बुद्धेः अर्थात् सम्बोधनस्य यः एकवचनप्रत्ययः तस्य लोपः भवति उदाहरणार्थम् रामशब्दस्य सम्बोधनम् हे राम सु इति स्थिते सु इस् अ प्रथम प्रत्यय सु इति एकवचनप्रत्ययः प्रीवियस् सो ऐ मेन्शन् सो सु इस् एकवचनप्रत्यय इन् प्रथमाय भक्ति आल्सो इन् सम्बोधन सम्बोधन इन् प्रथमाय भक्ति प्रत्ययसर्थेन् सु इति प्रत्ययः अतः राम इति ह्रस्वान्तः इति अन्ते अस्ति राम ह्रस्वः आकारः अस्ति ह्रस्वान्तः अतः सुप्रत्ययस्य लोपः एवं हरिशब्दः हरिशब्दः यद्यपि इकारान्तः दोडिकारान्त बट् इट् गेट्स् एकार इन् सम्बोधन दट् विल् एक्स्प्लेन् लेटर् हौ इट् बिकेम् एकार किन्तु यद्यपि इकारान्तः सम्बोधने हरे इति भवति नौ इट् इस् एङ् अन्त एण्डिङ्ग् वित् एकार एङ् ए ओ ए ओङ् एकारः ओकारः अस्मिन् उदाहरणे एकारः अस्ति अतः सम्बोधन एकवचनप्रत्ययस्य लोपः हे हरे इत्येव देन् गुरुशब्द उकारान्तशब्दः उकारस्य स्थाने ओकारः भवति how it became okara, that I will explain later. But in Sambodhana, guru becomes guru. Now again it is enganta. Enganta to ekavachana sambuddhe lopaha. Guru iti. Evam nadi shabdaha. Nadi shabda, atra nadi iti rupam in Sambodhana. It gets saswa. There are some rules that I will explain later. So though it is okay. Nadi iti dirgha ikaranta shabdaha. Nadi iti. Sambodhane nadi iti bhavati. Hraswantaha iti karanat supratyasya lopaha. Evam akarante asti ikarante ukaranta shabdaha atra ikaranta shabdaha sarvatrapi sambodhana ekavachane. Pratyasya lopaha bhavati. Sutram vartate em hraswat sambuddhehe iti etasya api sutrasya sarvatra anvayaha asti tataha idam maya arambhe uktam. Okay, there is some question. In my book, the sutra number is 6169. Just a minute. In Haswa Sambuddhe. Okay. In my book it is 6168. That can change because Tatra Matabheda Santi Sutra Sankhya Vishaya. So Kashika Ritya Tatra Matam Anyadasti. Siddhanta Kaumudya Adishu Matam Anyadasti. Some Vartikas are considered as Sutras in Kashika. But Bhatto Diksha Kshetra, they consider them as Vartikas. Therefore, they won't count in as sutras. Therefore, you may find some changes in sutra number. So, in my book, it is 6168, but some books it mentioned as 6169. Yeah. Hari ityasya hare iti rupam kimartham bhavati iti ikaranta shabdanam vivarana kale vadami. Guru iti guro iti bhavati, nadi iti asit nadi iti bhavati, tat tesham tat shabdasya vivarana kale vadami. Kintu sarvatrapi etasya niyamasya anvayaha asti. Eng hraswat sambuddhehe iti sutram tu sarvatra sambadhyate. Akarantasya akarantaha ikaranta ukaranta shabdaha ekop shabdaha syat sarvatrapi asya sutrasya anvayaha asti. Tadartham atra maya uktam, katham ikarasya ekaraha ukarasya ukaraha iti tatra ikaranta shabdasya vivarana kale udishyami. We will explain that later. Okay. Then, pura rupa. Am iti pratyaha asti ditya vibhaktehe ekavachana pratyaha. Am iti. So, am pratyaye pare sarvadapi purva rupam. Purva rupam nama purvam yaha varanaha asti tadeva dvayoha sthane bhavati. For example, Rama akaranta shabda, Rama plus am, dvitiya bhakti ekavachana. So purvam vidyamanaha varanaha akaraha. So this replaces both akaras. So a replaces, the previous letter replaces both. So Ramam and Guru Ukaranta Shabda Asti, Guru Am. So the previous letter is U. U replaces both letters. U plus A, atra U ityeva. Therefore Gurum. Hari plus Am, the E replaces both. Therefore I iteva harim. And nadi plus am dirgha ikara hasti. Dirgha ikara replaces both letters for nadim. Evam tatra am pratyaya pare. Ditya sasti ekavacham pratyaya am iti. Am pratyaya pare purva rupam bhavati. Purva rupam. పూర్వ పూర్వం విద్యమాన వర్ణ యహ అస్తి సహ ఏవ ద్వయోః స్థానే భవతి అతః పూర్వ రూపం ఇతి ప్రయోగః. సూత్రం వర్తతే అమి పూర్వః ఇతి. అస్తు అంటే ఇదం అయం తృతీయ నియమ. ఏకం నత్వ విషయే ఉక్తం ఫస్ట్ మెన్షన్ అబౌట్ నత్వ. దెన్ సంబోధన ఏకవచన అత్ర సంబుద్ధేః సంబోధన ఏకవచన ప్రత్యయస్య లోపః భవతి ఇత్యుక్తం. దట్ ఇస్ సెకండ్ రూల్. థర్డ్ వన్ ఇస్ పూర్వ రూప. అం ప్రత్యయ పరే ద్వితీయ విభక్తేః ఏకవచన ప్రత్యయః. అం ప్రత్యయ పరే పూర్వ రూపం భవతి ఇతి ఇదం తృతీయం వర్తతే. Yes, no sandhi rules here. Is this exception? Yes. So sandhi, this rule overrides sandhi rules. Correct. And actually this sutra is also in sandhi chapter, in Ashtadhyayi. See, you can see the number 61103. All achandhi rules are given in same section, in this section only, 61103. Section. So this rule is mentioned in Sandhi section itself, in Ashtadhyayi. Atah sarve apavadah, all such exceptions are exceptions to Sandhi rules. They are given in Sandhi section itself. But generally we won't study these in Sandhi chapter of Sandhi chapter in Siddhanta Kaumudi. But in Ashtadhyayi this sutra is in Sandhi section. Yes, correct. Kalyan Krishnanji. So sandhi rules come before this rule. Yes. So the general rules are mentioned before this rule. After that these exceptions are given. Okay. Then the last thing, nut punah dirghah. Nut ityatra only yatra nu avashishyate, nu iti avashishyate nut ityatra. Shashti bahuvachanam, shashti bahuvachanam pratyayah aam iti. Aam iti am iti dvitiya vibhakti bahu ekavachana pratyayah am. Hrasva akara asti. But shashti bahuvachana pratyaya is aam, dirgha asti. Atah hrasvah atra dirgha. Shashti bahuvachana pratyayasya nut agama, nudagamah bhavati. Punaha purvasya varanasya dirgha, karyadvayam. Nut agamah dirgha, purvasya varanasya dirgha. Udaharanartham. Oh, atra again, there is a mistake. It should be aam. రామ ఆమ్, గురు ఆమ్, హరి ఆమ్, నది ఆమ్. సో నుడాగమ భవతి. సో నుడాగమ భవతి చేత్ ఆమ్ అస్తి నామ్ ఇతి రూపం. ను ప్లస్ ఆమ్ నామ్. సో రామ నామ్. దెన్ పూర్వస్య వర్ణస్య దీర్ఘాత్, పూర్వ వర్ణ కహ అకార తస్య దీర్ఘ, అతః రామా నామ్, రామా నామ్. Then that rule, natva rule, is applicable. Rama naam nakara bhavati atkupvangnum vivayeti. Then guru aam, then note guru naam purvasya varanasya dirgha, purvaha varanaha asti ukara tasya dirgha chet guru iti rupam. So guru naam నత్వం భవతి గురుణాం. హరి నాం పూర్వస్య వర్ణస్య దీర్ఘశ్చేత్ హరీ నాం హరీణాం. నదీనాం అత దీర్ఘ అస్తేవ అతః న జ్ఞాయతే కింతు నుట్ భవతి నదీనాం. ఏం సర్వత్రాపి పితృశబ్దశ్చేత్ పితృణాం తత్రాపి దీర్ఘ భవతి. ఏం షష్ఠీ భక్తి బహువచన బహువచనే నుడాగమః పునః పూర్వస్య వర్ణస్య దీర్ఘ. సూత్రం వర్తతే హ్రస్వ నద్యాపో నుట్ इति नुट्टु विधायकं सूत्रम्, नामि इति दीर्घ विधायकं सूत्रम्। दिस् इस् अबौट् नुट् स्वरध्यापो नुट् अण्ड् नामि इस् अबौट् दीर्घ इति सूत्रद्वयं वर्तते। अस्तु, अयम् अन्यः चतुर्थः नियमः। षष्ठी विभक्ति बहुवचनप्रत्यये परे नुडागमः भवति, पूर्वस्य वर्णस्य दीर्घः भवति। करेक्ट्। प्रसाद कुप्पम् जी मेन्शन्ड् बट् नाट् अप्लैस् इन् सर्वनाम पदम्। Correct? Tesham, Tasham. Yes. So, there it's not applicable. So, Sarvanama Padana Vishayam Ante Vadishyami. So, now I am not dealing with the Sarvanama Padas. Then I will, after explaining all these Ajanta Shabdas, I will explain Sarvanama. Tada Tad Vishaye Vadishyami. Samyak. Okay. Astu, Janim Samayaha Dataha. एवञ्च एते सर्वेपि सामान्यनियमाः, एतेषां सूत्राणाम् अन्वयः सर्वत्रापि भवति। लकारान्तशब्दः, इकारान्तशब्दः, उकारान्तशब्दः, सर्वत्रापि ये नियमः उक्तः, णत्वं, पुनः सम्बुद्धेः लोपः, तृतीयं पूर्वरूपं, द्वितीयाभक्तेः एकवचनप्रत्यये परे पूर्वरूपं, चतुर्थं षष्ठीविभक्तेः बहुवचनप्रत्यये परे नुडागमः दीर्घः। एते नियमाः सर्वत्रापि अन्वयं प्राप्नुवन्ति। एतां प्रथमं जानीमस्ति, ततः परं प्रत्येकम् अकारान्तम्, इकारान्तं, प्रत्येकं शब्दं स्वीकृत्य तस्य प्रक्रियां कर्तुं शक्नुमः। अस्तु तर्हि, वै हेव् यु गिवन् एक्साम्पल् आफ् नदी इति, आल्रेडि दीर्घ इस् देर्, नो नत्वम् आल्सो। Yeah, this natvam is not there, but I gave it with the example because it gets nut. See, the pratyaya is aam, but it becomes naam. So this nut is applicable in nadi shabda. Therefore, I gave here. And dirgha, since there is dirgha, you may not find dirgha because nadi itself has dirgha, but you can see this one, nut. Therefore, I gave that as an example. Natva I explained previously, so this is not an example of Natva. I illustrated these examples as for these two, Nutta and Dirgha. Okay? Astu, tarihi, atra samapayamaha, agrima paathe, प्रत्येकं शब्दं स्वीकृत्य तस्य प्रक्रियां जानीमः। अस्तु, मङ्गलं करिष्यामि वाक्यकारं, वररुचिं, भाष्यकारं, पतञ्जलिं, पाणिनिं, सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। अस्तु तर्हि।